A single story of His infinite glory, captured through divine discourses, music, bhajans, and through Vedas, talk shows, interviews, panel discussion, and study circles. All brought to you live from the epicenter of our times, Prashanthi Nilayam, India. Radio Sai Thursday Live.
Sairam, dear listeners, and welcome back to the studios of Radio Sai Prashanthi Nilayam, giving you live broadcast every Thursday in the Asia stream of Radio Sai. As the proceedings in the Sai Kulwant Hall have ended just now, it's now time for us to go to the first segment of the evening session of this Thursday live program, and that is the Vedam Tutor. This is Team Radio Sai's Ganesh taking you along to this week's Radio Sai Vedam Tutor. In today's class, as a part of the Taittiriya Upanishad, we will be starting with the Shikshavali. We have with us our Praveena sir and the students along with him. Over to Praveena sir.
Om Sri Sai Ram. We will commence the learning of the Taittiriya Shaka here. And here in this Taittiriya Shaka, we have got three important mantras: Shikshavali, Bhrguvali, and Brahmanandavali. The very existence or the creation of this Taittiriya Shaka has got a background story to be told. Once sage Yajnavalkya was annoyed by his own guru, the Vaishampayana. Guru Vaishampayana asked the leading disciple Yajnavalkya to part away with all the mantras, knowledge that he has learnt from him. And there is no other go, sage Yajnavalkya vomits all that he has learnt, parts with all the mantras, knowledge that he has learnt from his guru Vaishampayana. And the other disciples of the sage Vaishampayana, they picked up this knowledge or all these mantras. So that's how, after they imbibed this knowledge, there came into existence this particular shaka called Taittiriya Shaka, which is nothing but the Krishna part of Krishna Yajurveda. Actually, this story goes in the Vishnu Purana, and that's why basically Vaishampayana Guru is said to be the one who is responsible for this Taittiriya Shaka. When you talk about the Yajurveda, we got two important divisions. One is Krishna Yajurveda and other one is Shukla Yajurveda. So Krishna Yajurveda is nothing but this particular Taittiriya Shaka. And we have the Shukla Yajurveda, which is also called Vajasanayi. Vajasanayi Samhita. Actually, after parting himself with the knowledge that is acquired from Vaishampayana, Yajnavalkya thus loses everything, but he doesn't give up. He wants to acquire the lost knowledge. That's why he started praying to Lord Surya. Lord Surya was pleased with his devotion and also his steadfastness. Lord Surya thus bestows Yajnavalkya with the knowledge. That's why the second part of the Yajurveda came into existence, and that is nothing but the Shukla Yajurveda or the white Yajurveda. Lord Surya comes in the form of horse, white horse, which is Vajin. That's why this particular Yajurveda, Shukla Yajurveda, is also called Vajasanayi part of the Yajurveda. That's how we have basically two important text divisions of this Yajurveda, very big knowledge of this Yajurveda. One is Shukla Yajurveda and another one is Krishna Yajurveda. And it is in this Krishna Yajurveda that you find the most important and very interesting three mantras, that is Shikshavalli, Bhruguvalli and Anandavalli. Taittiriyesha, why it is called Taittiriyesha? All those disciples of Vaishampayana actually attained the form of small birds called Tittiri birds, partridges. And that's how they picked up this mantra. And from them, this knowledge has come. That's why from the Tittiri birds, the knowledge has come. It's called Taittiri Upanishad. So this Taittiri Upanishad, we have the three parts. The first of them is nothing but the Shikshavalli, where a beautiful explanation is given about the chanting and also the various aspect of chanting, how it has to be chanted, etc. Mantra should be chanted, is given beautifully in this particular mantra. And this Shikshavalli actually starts with the Shanti Mantra, Shanno Mitra Sham Varunaha. And since we are familiar with this mantra, we'll chant this mantra together and then we'll go ahead learning part of the actual Shikshavalli. And before that, we'll start with the Ganapati Mahamantra chanting together.
Gananantva Ganapati Gum Havamahe Kavim Kavinam Upamashravastamam Jeshtharajam Brahmanam Brahmanaspata Arasrinvannoti Vissedasadhanam Prano Devi Saraswati Vajem Vajinevati Dhinama Vitri Havatu Ganeshaya Namaha Saraswatyai Namaha Shri Gurubhyo Namaha Hari Om. Shanno Mitra Sham Varuna Shanno Bhavatvaryama Shanna Indro Brahaspati Shanno Vishnururukramaha Namo Brahmane Namaste Vayo Twameva Pratyaksham Brahmasi Twameva Pratyaksham Brahma Vadishyami Ritam Vadishyami Satyam Vadishyami Tanmamavatu Tadvaktaram Avatu Avatu Mam Avatu Vaktaram Om Shanti Shanti Shanti.
So this Shanti Mantra, which is chanted before the Shikshavalli, as you notice here, you can see the propitiating the various Vedic deities, which includes Varuna, Aryama, Brihaspati, Urukrama, Brahmane. So all these important Vedic deities are propitiated in the beginning, and the divine energy is thus prayed, and then we go ahead learning this Shikshavalli. Tameva Pratyaksham Brahmahasi. So you are the very embodiment of cosmic energy, and this is what the truth which I have understood, I am telling. Ritam Vadishyami, Satyam Vadishyami, Tanmam Avatu Tat Vaktaram Avatu. And may you protect, may these gods protect me, and also Vaktaram, the preceptor, the teacher. So that's how you can see a beautiful mantra starting, where the blessings are sought from all these Vedic deities, and then going for the learning of Shikshavalli. I'll chant once, you can repeat after me twice.
Om Shiksham Vyakhyasyamaha Shiksham Vyakhyasyamaha Shiksham Vyakhyasyamaha
Varnasvaraha
Varnasvaraha Varnasvaraha
Matrabalam
Matrabalam मात्राबलम्
सामसंतानः
सामसंतानः सामसंतानः
इत्युक्तश्चेक्षाध्यायः
इत्युक्तश्चेक्षाध्यायः इत्युक्तश्चेक्षाध्यायः
सह नो यशः
सह नो यशः सह नो यशः
सह नो ब्रह्मवर्चसम्
सह नो ब्रह्मवर्चसम् सह नो ब्रह्मवर्चसम्
अथातः सगुंहिताय उपनिषदम् व्याख्यास्यामः
अथातः सगुंहिताय उपनिषदम् व्याख्यास्यामः अथातः सगुंहिताय उपनिषदम् व्याख्यास्यामः
पञ्चस्वधिकरणेषु
पञ्चस्वधिकरणेषु पञ्चस्वधिकरणेषु
अधिलोकमधिज्योतिषमधिविद्यमधिप्रजमध्यात्मम्
अधिलोकमधिज्योतिषमधिविद्यमधिप्रजमध्यात्मम् अधिलोकमधिज्योतिषमधिविद्यमधिप्रजमध्यात्मम्
I'll split this long sentence. अधिलोकमधिज्योतिषम्
अधिलोकमधिज्योतिषम्
अधिविद्यमधिप्रजमध्यात्मम्
अधिविद्यमधिप्रजमध्यात्मम्
In chanting together, it becomes अधिलोकमधिज्योतिषमधिविद्यमधिप्रजमध्यात्मम्
अधिलोकमधिज्योतिषमधिविद्यमधिप्रजमध्यात्मम्
तामहासगुंहिता इत्याचक्षते
तामहासगुंहिता इत्याचक्षते तामहासगुंहिता इत्याचक्षते
अथाधिलोकम्
अथाधिलोकम् अथाधिलोकम्
पृथिवी पूर्वरूपम्
पृथिवी पूर्वरूपम् पृथिवी पूर्वरूपम्
द्यौरुत्तररूपम्
द्यौरुत्तररूपम् द्यौरुत्तररूपम्
आकाशसन्धिः
आकाशसन्धिः आकाशसन्धिः
वायुसन्धानम्
वायुसन्धानम् वायुसन्धानम्
इत्यधिलोकम्
इत्यधिलोकम् इत्यधिलोकम्
अथाधिज्योतिषम्
अथाधिज्योतिषम् अथाधिज्योतिषम्
अग्निः पूर्वरूपम्
अग्निः पूर्वरूपम् अग्निः पूर्वरूपम्
आदित्य उत्तररूपम्
आदित्य उत्तररूपम् आदित्य उत्तररूपम्
आपस्सन्धिः
आपस्सन्धिः आपस्सन्धिः
वैद्युतस्सन्धानम्
वैद्युतस्सन्धानम् वैद्युतस्सन्धानम्
इत्यधिज्योतिषम्
इत्यधिज्योतिषम् इत्यधिज्योतिषम्
अथाधिविद्यम्
अथाधिविद्यम् अथाधिविद्यम्
आचार्यः पूर्वरूपम्
आचार्यः पूर्वरूपम् आचार्यः पूर्वरूपम्
अन्ते वास्युत्तररूपम्
अन्ते वास्युत्तररूपम् अन्ते वास्युत्तररूपम्
विद्यासन्धिः
विद्यासन्धिः विद्यासन्धेः
प्रवचनगुं सन्धानम्
प्रवचनगुं सन्धानम् प्रवचनगुं सन्धानम्
इत्यधिविद्यम्
इत्यधिविद्यम् इत्यधिविद्यम्
अथाधिप्रजम्
अथाधिप्रजम् अथाधिप्रजम्
मातापूर्वरूपम्
मातापूर्वरूपम् मातापूर्वरूपम्
पितोत्तररूपम्
पितोत्तररूपम् पितोत्तररूपम्
प्रजासन्धिः
प्रजासन्धिः प्रजासन्धिः
प्रजननगुं सन्धानम्
प्रजननगुं सन्धानम् प्रजननगुं सन्धानम्
इत्यधिप्रजम्
इत्यधिप्रजम् इत्यधिप्रजम्
अथाध्यात्मम्
अथाध्यात्मम् अथाध्यात्मम्
अधराहनुः पूर्वरूपम्
अधराहनुः पूर्वरूपम् अधराहनुः पूर्वरूपम्
उत्तराहनुरुत्तररूपम्
उत्तराहनुरुत्तररूपम् उत्तराहनुरुत्तररूपम्
वाक्सन्धिः
वाक्सन्धिः वाक्सन्धिः
जिह्वासन्धानम्
जिह्वासन्धानम् जिह्वासन्धानम्
इत्यध्यात्मम्
इत्यध्यात्मम् इत्यध्यात्मम्
इति मामहासंहिताः
इति मामहासगुंहिताः इति मामहासगुंहिताः
य एवमेता महासगुंहिता व्याख्याता वेद
य एवमेता महासगुंहिता व्याख्याता वेद इति
य एवमेता महासगुंहिता व्याख्याता
वेद
प्लीज रिपीट दिस सेंटेंस
य एवमेता महासगुंहिता व्याख्याता वेद
य एवमेता महासगुंहिता व्याख्याता वेद
संधीयते प्रजया पशुभिः
संधीयते प्रजया पशुभिः संधीयते प्रजया पशुभिः
ब्रह्मवर्चसेनान्नाद्येन
ब्रह्मवर्चसेनान्नाद्येन ब्रह्मवर्चसेनान्नाद्येन
सुवर्गेण लोकेन
सुवर्गेण लोकेन सुवर्गेण लोकेन
ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण लोकेन
ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण लोकेन ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण लोकेन
यस आई थिंक टिल हियर वी विल चैंट वंस टुगेदर फ्रॉम द बिगिनिंग Okay, we'll chant together from the beginning till here. Continuously chant.
Shiksham yakhyasyamaha varnasvaraha matrabalam samasanthanaha ityukta shikshadhyayaha sahano yashaha sahano brahma
varchasam.
Please stop. Sa also carries a downward intonation, that's why
Saha nau yashah, saha nau,
sa comes down. We'll chant now.
Saha nau yashah, saha nau brahma varchasam, athatas sagumhitaya upanishadam vyakhyasyamaha, panchasvadhikaraneshu, अधिलोकमधिज्योतिषमधिविद्यमधिप्रचमध्यात्मम् तामहासगुंहिता इत्याचक्षते
अथाधिलोकम् पृथिवी पूर्वरूपम् द्यौरुत्तररूपम् आकाशसन्धिः वायुसन्धानम् इत्यधिलोकम् अथाधिज्योतिषम् अग्निः पूर्वरूपम् आदित्य उत्तररूपम् आपःसन्धिः वैद्युतःसन्धानम् इत्यधिज्योतिषम् अथाधिविद्यम् आचार्यः पूर्वरूपम् अन्तेवास्युत्तररूपम् विद्यासन्धिः प्रवचनगुंसन्धानम् इत्यधिविद्यम् अथाधिप्रजम् मातापूर्वरूपम् पितोत्तररूपम् प्रजासन्धिः प्रजननगुंसन्धानम् इत्यधिप्रजम् अथाध्यात्मम् अधराहनुः पूर्वरूपम् उत्तराहनुरुत्तररूपम् वाक्सन्धिः जिह्वासन्धानम् इत्यध्यात्मम् इति मा महासगुंहिताः य एवमेता महासगुंहिता व्याख्याता वेदा सन्धीयते प्रजया पशुभिः ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण लोकेन.
I'll just chant the last sentence here. ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण लोकेन.
ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण लोकेन.
Repeat after me twice. यश्चन्दसामृषभो विश्वरूपः.
यश्चन्दसामृषभो विश्वरूपः. यश्चन्दसामृषभो विश्वरूपः.
छन्दोभ्योऽध्यमृता सम्बभूव.
छन्दोभ्योऽध्यमृता सम्बभूव. छन्दोभ्योऽध्यमृताच्छं बभूव.
समेन्द्रो मेधया स्पृणोतु.
समेन्द्रो मेधया स्पृणोतु. समेन्द्रो मेधया स्पृणोतु.
अमृतस्य देवधारणो भूयासम्.
अमृतस्य देवधारणो भूयासम्. अमृतस्य देवधारणो भूयासम्.
शरीरम् मे विचर्षणम्.
शरीरम् मे विचर्षणम्. शरीरम् मे विचर्षणम्.
विन् चाण्ड् विचर्षणम् किन् स्लैट्लि स्प्लिट् शर सो इट् बिकम् शरीरम् मे विचर्षणम्.
शरीरम् मे विचर्षणम्.
जिह्वा मे मधुमत्तमा.
जिह्वा मे मधुमत्तमा. जिह्वा मे मधुमत्तमा.
कर्णाभ्याम् भूरि विश्रुवम्.
कर्णाभ्याम् भूरि विश्रुवम्. कर्णाभ्याम् भूरि विश्रुवम्.
ब्रह्मणः कोशोऽसि मेधया पिहितः.
ब्रह्मणः कोशोऽसि मेधया पिहितः. ब्रह्मणः कोशोऽसि मेधया पिहितः.
श्रुतम् मे गोपाय.
श्रुतम् मे गोपाय. श्रुतम् मे गोपाय.
आवहन्ति वितन्वाना.
आवहन्ते वितन्वाना. आवहन्ते वितन्वाना.
कुर्वाणा चिरमात्मनः.
कुर्वाणा चिरमात्मनः. कुर्वाणा चिरमात्मनः.
वासागुंसि मम गावश्च.
वासागुंसि मम गावश्च. Vasagumsi mamagavascha
Annapane cha sarvada
Annapane cha sarvada Annapane cha sarvada
Tato me shriyamavaha
Tato me shriyamavaha Tato me shriyamavaha
Lomasham pashubhissaha swaha
Lomasham pashubhissaha swaha Lomasham pashubhissaha swaha
Amayantu brahmacharina swaha
Amayantu brahmacharina swaha Amayantu brahmacharina swaha
Vimayantu brahmacharina swaha
Vimayantu brahmacharina swaha Vimayantu brahmacharina swaha
Pramayantu brahmacharina swaha
Pramayantu brahmacharina swaha Pramayantu brahmacharina swaha
Damayantu brahmacharina swaha
Damayantu brahmacharina swaha Damayantu brahmacharina swaha
Shamayantu brahmacharina swaha
Shamayantu brahmacharina swaha Shamayantu brahmacharina swaha
Yashojane sanisvaha
Yashojane sanisvaha Yashojane sanisvaha
Shreyan vasyaso sanisvaha
Shreyan vasyaso sanisvaha Shreyan vasyaso sanisvaha
Tantva bhagav pravisha nisvaha
Tantva bhagav pravisha
Pravisha Niswaha
I'll chant once again, repeat after me.
Tantva Bhagav Pravisha Niswaha
Tantva Bhagav
Pravisha Niswaha
Tantva Bhagav Pravisha Niswaha So when you club these words, it becomes
Tantva Bhagav Pravisha Niswaha
Tantva Bhagav Pravisha Niswaha Tantva bhagav pravisha niswaha
Sama bhagav pravisha swaha
Sama bhagav pravisha swaha Sama bhagav pravisha swaha
Tasmin sahasra shakhe
Tasmin sahasra shakhe Tasmin sahasra shakhe
Nibhagaham tvai mruje swaha
Nibhagaham tvai mruje swaha Nibhagaham tvai mruje swaha
Yatapav pravatayante
Yatapav pravatayante Yatapav pravatayante
Yathamasa Ahajjaram
Yathamasa Ahajjaram Yathamasa Ahajjaram
Here, just see properly. Yathamasa Aha These two syllables do not carry any intonation. So they remain plain. That's why you chant.
Yathamasa Ahajjaram
Yathamasa Ahajjaram
Again.
Yathamasa aharjaram
Evam maam brahmacharinaha
Evam maam brahmacharinaha Evam maam brahmacharinaha
Dhatarayantu sarvataswaha
Dhatarayantu sarvataswaha Dhatarayantu sarvata swaha.
Again here also, dhatarayantu, tu is not carrying downward intonation. So it becomes dhatarayantu sarvata swaha.
Dhatarayantu sarvata swaha.
Stop, can you chant?
Dhatarayantu sarvata swaha.
We'll chant together.
Dhatarayantu sarvata swaha. Prativesho sif pramabhahi pramapadyasva.
Prativesho sif pramabhahi pramapadyasva.
Prativesho sif pramabhahi
pramapadyasva.
I think we'll chant till here from where we left last time. That is, I think, from Yaschandasam Rishabhu. So we'll chant together from Yaschandasam Rishabhu Vishwarupaha.
Yaschandasam Rishabhu Vishwarupaha Chandobhyodhyamrutat Sambhabhuva Samendro Medhaya Sprunotu Amritasya Devadharano Bhoyasam.
Stop. Can you repeat this particular sentence? Amritasya, sya is not again carrying the downward intonation.
Amritasya Devadharano Bhoyasam.
Amritasya Devadharano Bhoyasam.
Shariram me vicharshanam jikhva me madhumattama Karna abhyam bhuri vishruvam brahmana koshosi medhaya pihitaha shrutam me gopaya avahamte vitanvana kurvana chiramatmanah vasagum sima bhagavascha annapane cha sarvada Tato me shriyamabaha lomasham pashubhissah swaha amayantu brahmacharinah swaha vimayantu brahmacharinah swaha pramayantu brahmacharinah swaha damayantu brahmacharinah swaha Shamayantu brahmacharinah swaha Yashojane sa niswaha Shreyanvasya so sa niswaha Tantva bhaga pravisha niswaha Sama bhaga pravisha swaha Tasmin sahasrashake Nibhagaham tvaimrje swaha Yatha pavpravatayanti Yatha masa aharjaram Evam maam brahmacharinaha Dhatarayantu sarvata swaha Prativesho sipramabhahi pramapadyasva.
So we will wind up chanting the Kshama Prarthana Mantra and Shanti.
Om Shanti 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 Yadakshara Padabhrashtam Matra Hinantu Yadbhavet Tat Sarvam Kshamyatam Deva Narayana Namostute Visarga Bindu Matrani Padapadakshrani Cha Nyonani Chati Riktani Kshamasvasa Ishvara Aparadha sahasrani kriyante harnisham maya Daso yamiti mamatva kshamasvasa ishvara Anyatha sharanam nasti tvameva sharanam mama Tasmat karunya bhavena raksha raksha sa ishvara Hari om tat sat shri sa ishvara arpanamastu.
With this, we come to an end to this week's Vedam Tutor. In the next class, we will be continuing with the learning of Shikshavali. Sai Ram.